यज्ञेश्वरं सम्प्रति हव्यकव्यं तथा गतिं लोक सदाशिवो यः आराधितो यश्च ददाति सर्वा नमामि दानप्रियमिष्टदेवं
नमामि सोमेश्वरं स्वतन्त्रं उमापतिं